नत्वप्रकरणम् इति आरभ्य पठामि वा भगिनि?
आम् महोदय, पठतु.
अत्र नत्वप्रकरणं रषाभ्यां नोणः समानपदे रेपषकाराभ्यमुत्तरस्य नकारस्य णकारादेशो भवति समानपदस्थौ चेदेव निमित्तं निमित्तनिमित्तिनौ भवतः पूर्णं तिसृणाम्. अनन्तरम् अट् कुप् वाङ्नं व्यवायेपि अट् कवर्ग पवर्ग आन् नुम् इत्येतैः यथा सम्भवं मिलितैः व्यधानेपि नस्य नः स्यात् समानपदे अनुवृत्तिसहितसूत्रम् अट् कुप् व्याङ्नं व्यवायेपि रषाभ्यां नोणः समानपदे करणं मार्गेण. अनन्तरं प्रातिपदिगान्तनुं विभक्तिषु च समासप्रसङ्गे पूर्वपदस्य निमित्तात् परस्य एषु स्थितस्य नस्य णो वा स्यात् अनुवृत्तिसहितसूत्रं पूर्वपदात् रषाभ्याम् अट् कुप् वाङ्नुं व्यवायेपि नोणः प्रातिपदिगान्तनु नुं विभक्तिषु वा व्रीहि वापि णौ व्रीहि वापि णौ इति. अत्र णत्वप्रकरणम् इति प्रकरणस्य त्रीणि सूत्राणि दत्तानि अधः. प्रथमसूत्रम् अस्ति रषाभ्यां नोणः समानपदे इति. अत्र रषाभ्याम् इति पञ्चमी विभक्ति पदमस्ति, द्विवचनपदम्. अनन्तरं नो इति षष्टिविभक्त्यन्तं पदमस्ति, णः इति प्रथमविभक्त्यन्तं पदमस्ति. अतः नः नः इति स्थानि भवति. यत्र नः अस्ति तत्र णत्वस्य आदेशः अस्ति रषाभ्यां. पञ्चमी विभक्ति अस्ति अत्र, अतः कार्यं रषाभ्या रेपः षकारस्य परं भवति. रेपः षकारस्य परं यत्र नः नत्वम् अस्ति तत्र नत्वस्य नकारत्वं भवति, नकारादेशः भवति समानपदे एकम् एव पदे इति सूत्रं वदति. अनन्तरं अट् कुप् वाङ्नं व्यवायेपि इति सूत्रं वदति यत् अत्र रेपः अस्ति षकारः अस्ति, रेपस्य षकारस्य अनन्तरं अट् इति प्रातिपदिके अन्तर्भूतस्य
अन्तर्भूतस्य
वर्णः अनन्तरं कवर्ग पवर्ग आङ् नुम् इति अपि आगच्छन्ति चेदपि अपि अत्र णत्वस्य णत्वं भवति एव इति वदति तत्सूत्रम्. अनन्तरं प्रातिपदिगान्तनुं विभक्तिषु च इति अस्ति. अत्र यत्र प्रातिपदिकमस्ति अत्र प्रातिपदिकस्य अन्ते नुम् इति अस्ति चेत् अत्र विभक्तिषु णत्वस्य णत्वं विकल्पेन भवति इति अस्ति. तदेव णत्वप्रकरणम् इति त्रीणि सूत्राणि सूचयन्ति.
महोदय, प्रातिपादिकन्तनुं विभक्तिषु च इति सूत्रं त्रीणि प्रसङ्गे कार्यं करोति. प्रातिपादिकस्य अन्ते नकारः अस्ति वा नुम् आगमः नुम् आगमः अस्ति वा विभक्तेः नुम् नकारः अस्ति वा त्रीणि त्रिषु स्थलेषु कार्यं करोति.
प्रातिपदिकान्त नु विभक्तिषु इत्यत्र अर्थः कः?
ओके, आप्षनलि दिस् इस् इङ्ग्लिश् वन् ऐ हाव् हियर्. आप्षनलि द ना फार् ना हेपन्स् अट् द एण्ड् आफ् अ नामिनल् स्टेम्. नकारः प्रातिपादिकात् अन्ते अस्ति यथा व्रीहि वाप्पिन् इति प्रातिपदिकमस्ति. वापिन् इति प्रातिपदिके अन्ते नकारः अस्ति अतः नकारः भवति तदा एव व्रीहि वापिनौ इति भवति. प्रथमप्रसङ्गमस्ति. द्वितीयमस्ति व्रीहि वाप्पे योगः न इति व्रीहि वापेण इति तत्र न इति सुप्रत्ययः इति मन्ये. अनन्तरं व्रीहि वा
विभक्ति तृतीयविभक्तिरूपमेव भवति खलु भगिनि?
विभक्तिरूपमस्ति. सो विभक्तिप्रत्ययस्य स्थाने नकारः नकारः भवति. अनन्तरं नुमागमः अस्ति व्रीहि वापाणि इति वापाणि इति प्रथम विभक्ति बहुवचने नुमागमः अस्ति अतः तथापि व्रीहि वापाणि इति भवति. किञ्चित् ध्वनिः अस्ति. म्यूट् करोमि.
कृपया म्यूट् करोतु प्लीज्.
ऐ थिङ्क् समवन्स् लैन्.
Please unmute one by one so we can find out whose line has the noise.
Uma.
Okay, I think this is where we are getting the noise.
Ha?
Bhagini, the dhwani
has, dhwani. That is fan dhwani, not that loud noise.
Okay. Anya, api unmute
Sharmila.
This is Pamela. I'm logging on the computer, so.
Okay, yeah, that's no dhwani.
Sharmila api dhwani nasti iti manne.
Yeah,
Sharmila api nasti. Mama line madhi dhwani asti va? Nasti iti chintayam.
Nasti mahodaya. Yeah, nasti mahodaya.
Api dhwani asti va?
Fan dhwani eva asti.
Yeah, fan dhwani. Not that loud sea-like noise.
Okay, so we have three people. So Purnendra Mahodaya, Setra Mahodaya, Kripaya, unmute Karotu. Star 6.
Aham Sanganake Asmi, unmute Kutavan.
Okay. Okay, Kinchitapi Dwani Nasti. Okay, I think we have everybody back. So प्रातिपादिकान्त नुम् विभक्तिषु च
भगिनि व्रीहि वापिन् इति प्रातिपदिक शब्दः व्रीहि वापिनौ व्रीहि वापिनः आर् व्रीहि वापिन् व्रीहि वापिनौ व्रीहि वापिनः लैक् दट् इट् कम्स् तत्तु प्रथमा विभक्ति एकवचनं द्विवचनं बहुवचनमस्ति इति मन्ये.
रूपं विकल्परूपं नकारः अस्ति, तस्य कारणं त्रीणि कार्याणि कारणानि सन्ति. प्रातिपादिक अन्तनुं नकारः एकं कारणम्, अनन्तरं विभक्तिषु अन्ते नकारः अस्ति द्वितीयकारणं, नुमागमः तृतीयकारणं, त्रीणि कारणानि सन्ति नत्वादेशस्य.
अत्र नुमागमः कथमस्ति?
Numagamaha, I don't know how it happens, but the when the Vrihi Vapena, when that happens, there is a Numagama action that makes for that Vrihi Vapena. That Na is coming because of Numagama. I don't know how, because we haven't studied it. But if there is a Numagama, then it gets...
Purnendu Mahodaya, can you explain this?
No, Vagini, I have no idea about it. Actually, I have not read all these things.
Can I say something? This Karapatram is to make it clear why we should learn using the Ashtadhyayi Krama and what is the Prakaranam and what is Anuvritti. So we don't have to understand each of the sutras here because we have not done half of them. We've done the first two, not the third one.
So
if we can just go through that of, you know, where the anubhuti, why it is required, then we can finish the Karapatram. Otherwise, we won't be able to finish it because we don't know most of the sutras mentioned here.
I agree, Bhagini. Maybe we should just
keep moving. Atra avadheyam va rasabhyam no naha iti prathama sutram asti. तदनन्तरम् आगच्छति अट्कुप्वाङ् व्यवाये अपि. सः सूत्र तं शब्दं पश्यत् एव किमपि न अवगच्छामि यदा पर्यन्तं वयम् अनुवृत्ति न कुर्मः. अतः अट्कुप्वाङ् व्यवाये अपि रष्टाभ्यां नो नः समाने पदि यदा सूत्रं भवति तदा अवगच्छामि किं कार्यं करोति इति. सिमिलर्ली प्रातिपदिकान्तनुं विभक्तिषु तत्र किमपि न अवगच्छामि यदा अनुवृत्ति न भवति. ते देर् आर् 39 सूत्रास् हियर्, वि हेव् बीन् शोन् ओन्ली 3. सो सिमिलर्ली देर् विल् बि 39 एण्ड् वि हेव् टु अण्डर्स्टाण्ड् दट् एव्रिथिङ्ग् रिलेटेड् टु दन्त्यनकार बिकमिङ्ग् मूर्धन्यणकार अत्र अस्ति एव. अतः कुत्रापि वयं न अवगच्छामः चेत्
अङ्गीकरोमि. सो द ऐडिया इस् दट् इन् अष्टाध्यायी प्रकरणम् इस् देर् एण्ड् दट् इस् डिफ्रेण्ट् फ्रोम् द प्रक्रिया दट् वी हव् बीन् फालोयिङ्ग्. दट्स् द अण्डर्स्टाण्डिङ्ग् वि नीड् टु हेव्.
So, Setra Mahodaya, do you want to read from Tarhi Ahatya? Okay, Mahodaya doesn't seem to be there. Purnendra Mahodaya, do you want to pick up?
Aham Bhagini, aham pathami, parantu anusilanam kartum na shaknaumi. अस्तु अस्तु. तर्हि आहत्य पाणिनेः प्रकरणरीत्या लेखनेन सूत्राणां लघुत्वं सिद्धम् अपि च तेषाम् आयोजनम् अतिस्पष्टम्. अस्माकं कृते प्रकरणाधारिणा अभ्यासेन सूत्रनैपुण्यं जायते अपि च सामग्री कुत्र स्थिता इति जायते. अष्टाध्यायीक्रमस्य पठनेन अनेके महान्तलाभाः. प्रक्रियाग्रन्थेषु सूत्राणि इतस्ततः स्वीकृत्य पदनिर्माणं भवति. अनेककारणेन सूत्रक्रमः भग्नो भवति. अनुवृत्तिः नैव प्रकटा. सूत्राणां
बोधार्थं महान् सङ्घर्षः. सारांशे पाणिनये स्वयं प्रकरणरीतिः रोचते खलु, तदा एव अयं मार्गः तेन स्वीकृतः. तस्य मार्गचयनस्य किञ्चन कारणं स्यात्. तर्हि पाणिनेः पद्धतेः लाभम् आस्वादयाम.
अस्तु, so does anybody else want to explain?
प्रयत्नं करोमि भगिनि. तर्हि आहत्य पाणिने प्रकरणरीत्या लेखने सूत्राणां लाघुत्वं सिद्धः. लाघुत्वं किमर्थं पाणिनेः कृतम् इति वयम् अवगन्तुं शक्नुमः. प्रकरणं किम् इति चेत्, वयं सूत्राणि स्वीकृत्य प्रथमं किं सूत्रम् अस्ति, तस्मात् कश्चित् पद अनुवृत्तिरहितेन आगच्छति तं दृष्ट्वा, यतोहि अस्ति खलु अत्कुप्वाङ् वयवाय अपि रषभ्यां नोन समानपदे, रषभ्यां नोन समानपदे पूर्णरीत्या अनुवृत्ति भवति. तत् करणेन वयम् अवगन्तुं शक्नुमः किं भवति, किन्तु प्रक्रियायाम् अहं न जानामि किम् अस्ति प्रक्रिया, किन्तु ऊहां कर्तुं शक्नोमि. अहं चिन्तयामि प्रक्रिया केवलं सोपानानि सन्ति, न तु अनुवृत्तिरहित सोरि अनुवृत्ति वित् अनुवृत्ति नास्ति इति मया चिन्तनम् अस्ति. केवलं सूत्रं दत्तानि, किन्तु प्रकरणानि वयम् अनुवृत्ति विहितसूत्रं स्वीकरोमि. तदैव मे बि डिफ्रेन्स् अस्ति.
तदेव सिद्धान्तकौमुदी इत्यतः सन्धि इत्युक्ते विसर्गसन्धि अथवा अचसन्धि इति प्रक्रिया दीयते. तत्र अन्य अदर् प्लेसेस् सूत्रं तत्र दीयम् अस्ति, तत्र अनुवृत्तिसहितसूत्रं दीयते. अतः कुतः कः शब्दः आगच्छति इति वयं न
ज्ञातुं शक्नुमः. Okay, thank you.
They are all in sequence, so we know what word is coming from where.
Oh, okay. There also anuruti happens, but only think it is all over the place, so you don't know where it is coming from.
Yes,
is that it?
We don't know which word is coming from which sutra. It is just the entire sutra given.
Okay. Thanks. I don't know about that. So, yeah. Dhanyavad, Bhagini.
So I'm thinking also later on in Panini with the Ashtadhyayi, there is a sequence of which one has got more strength. I think that's a future lesson. That sequence also gets missed if we go with something like Siddhanta Kaumudi, like Sutrasya Balabalam, like which sutram has precedence. That is a lesson that's coming up, I think, that talks about that. So it's a good method.
Oh yeah. Well, I'm totally new to this. In fact, I'm a very new student. Even Sanskritaya Bhashayam, aham bahu nutana chhatra asmi. Mama adi. Mama Sanskrita adhyanam kevalam varshadvayat purvam eva arabdham. Tata purvam aham sanskritam kimapi na janami.
सम्यक् भाषणं करोति.
धन्यवादः.
ओके, सो देर् इस् आर्डर् आफ् प्रिसीडेन्स् लैक् विच् सूत्र इस् एफेक्टिव् इन् दिस् प्लेस् अण्ड् दोस् कैण्ड् आफ् थिङ्ग्स् वेन् यु लूस् द सीक्वेन्स् आफ् द सूत्रस् यु डोण्ट् गेट् टु सी देट् इन् दर्.
That's all I have to say there. And also, I did locate one more thing. We have read this idagama vishaye trini sutrani vayam drishtavantaha. That also is a idagama prakaranam. Saptama adhyayasa dvitiya pade ashtama sutra tarabhya ashta saptatitama sutra paryantam idagama prakaranam asti. So that's something we are familiar with. Okay, ashtadhyayaha mana chitram. Uma bhagini bhavati
patami ma. अष्टाध्यायाः मानचित्रम् अतः अष्टाध्यायाः मानचित्रं किमिति अवलोकयाम अष्टाध्यायाम् अच्छा शाल् ऐ पुट् आफ् द फ़ेन् इफ़् इट् इस् डिस्टर्बिङ्ग् वन् सेकेण्ड् सोरि इट्स् मेकिङ्ग् नाय्स् ओके अतः अष्टाध्यायाः मानचित्रं किमिति अवलोकयामः अष्टाध्यायाम् अष्टौ अध्यायाः सन्ति प्रत्येकस्मिन् अध्याये चत्वारः पादाः पादेषु सूत्राणि क्रमेण भवन्ति प्रत्येकं सूत्रस्य स्वस्य सूत्रसङ्ख्यायां भागत्रयं प्रथमा संख्या अष्टाध्यायस्य द्वितीया संख्या पादस्य तृतीया संख्या सूत्रस्य इति इको यथा इको यणचि 6176 इदं सूत्रं षष्ठे अध्याये तत्र प्रथमे पादे सूत्रसंख्या 76 सो अत्र अष्टाध्यायस्य निर्माणं प्रति वर्णयतः अत्र अष्टाध्याये अष्टाध्यायाः सन्ति प्रति अध्यायः चत्वारि पादाः सन्ति अण्ड् देन् पात्रौ सूत्राणि क्रमेण वर्णयति अत्र प्रथमे इको एनर्जि एक्साम्पल् इफ् इट् इट् इस् इन् सिक्स्त् पाद सिक्स्त् अध्याय प्रथमपाद 76 सूत्रं सो आल् द त्री आर् गिवन् सो इट् विल् बि ईसि फार् अस् टु रेफर् एस् रैट्लि सेड् बै भगिनी दि अष्टाध्यायी फालोयिङ्ग् इस् डन् बै पुष्पादीक्षितमहोदय Whereas, this Siddhanta Kaumuti, Ashtadhyayasya anukaran na karoti, topic-wise karoti. Tasmat, it is very difficult to understand Siddhanta Kaumuti. Whereas, Pushpadikshitam Mahodayaha Ritya, Paninehe Riti eva description karoti. Atre, it is easy because Panini has done the prakaranam and this every prakaranam has got like that natva prakaranam, it prakaranam, like that he has classified properly. So following this Pushpadiksha Mahodaya has reeti sulabena vayam patitum shakyati.
धन्यवादः भगिनि शर्मिला भगिनी पठति किम्
एकैकस्मिन् अध्याये के मुख्यविषयाः अन्तर्गताः इति यदा जानीमः तदा कस्यचित् सूत्रसङ्ख्यायाः दर्शनेन तस्य सूत्रस्य कीदृशं कार्यं स्यात् इति अनुमानं कर्तुम् अर्हामः अतः एकैकस्य अध्यायस्य केचन प्रमुखविषयाः दत्ताः सर्वे ज्ञात्वा नोक्तं सर्वं ज्ञात्वा नोक्तं किञ्च अधः यद् दत्तं बुद्धं चेत् मनसि अष्टाध्यायाः एकाः दृष्टिः सिद्धा भविष्यति अत्र पुनः अष्टाध्यायाः रचना च तस्य किं वदामः कुत्र कः कुत्र किं प्रक्रिया अस्ति इति दीयते. प्रथम अध्याये प्रायेण संज्ञासूत्राणि सन्ति. द्वितीय अध्याये समासाधिकारः विभक्तिनां विधानं भवति. तत्र समासप्रक्रिया यदि वयं कर्तुम् इच्छामः तस्य सम्बद्धाः सर्वैः सूत्राणि द्वितीय अध्याये भवति. पुनः सुबन्तप्रकरणं वा विभक्तिनां विधानं तत्र अपि क्रमेण द्वितीया चतुर्थी तृतीया पञ्चमी सप्तमी प्रथमा षष्ठी इति विभक्तयः दीयते. अतः तस्य प्रक्रियायामपि सूत्राणि कुत्र अन्वेष्टनीयानि इति वयं जानीमः. अतः अष्टाध्यायी पूर्णतया कण्ठस्थीकरणं न don't want to do. Even then, if we just understand this sequencing or classification of what is where, it will give us an idea by just looking at the sutra sankhya. Iyam sutram kasya prakriya sambandhi asti iti. Tritiya chaturtha panchama adhyaye sarve pratyayaha diyante. अत्र धातु च प्रातिपदिकेभ्यः सर्वे प्रत्ययाः विहिताः भवन्ति. अतः किमपि धातुतः वा प्रातिपदिकतः यदि शब्दं निर्माणं वयं कुर्मः तत्र के प्रत्ययाः च तस्य प्रक्रिया का इति अत्र दीयते. तृतीये अध्याये धातु परे ये प्रत्याः विहिता ते अस्ति समादयः प्रक्रिया प्रत्ययाः विकरणप्रत्ययाः कृत् प्रत्ययाः लकार प्रत्ययाः कर्मणि भावे च कृत् प्रत्ययाः लकारः प्रत्ययः स्त्रियां कृत् प्रत्ययाः इति. अतः धातुसम्बन्धि के प्रत्ययाः भवन्ति च तस्य प्रक्रिया का इति तृतीय अध्याये दीयते इति अहं मन्ये. चतुर्थ अध्याये प्रातिपदिकेभ्यः अतः नाम पदम् आल् नौन्स् ये प्रत्ययाः विहिता ते सर्वे अत्र उक्ताः. स्त्रियां के प्रत्ययः तद्धिताधिकारः अहं किञ्चिदपि स्त्रियां स्त्रीप्रत्ययानां विषये जानामि. प्रातिपदिकेभ्य यथा राम अथवा पुल्लिङ्ग ये प्रातिपदिकाः सन्ति तस्य परे स्त्रीप्रत्ययः आगत्वा स्त्रीलिङ्गे शब्दानां व्युत्पत्ति भवति. तथा सीता अथवा लक्ष्मी इति शब्दः निर्मातुं स्त्रीप्रत्ययानां प्रक्रिया वि हेव् टु नो. पञ्चम अध्यायः तद्धितप्रत्ययः विभक्तिसंज्ञकाः प्रत्ययाः अव्ययसंज्ञकाः प्रत्ययाः च समासान्त अधिकारः समासान्ते ये प्रत्ययाः सन्ति बहुधा उत्तरपदस्य के प्रत्ययाः भवति इति अत्र दीयते. यथा उदाहरणं दत्तमस्ति दीर्घः पन्थाः अत्र दीर्घपन्थाः इति न भूत्वा दीर्घपथः भवति. सर्वारात्रि सर्वरात्र तत्र प्रक्रिया अस्ति कथं सर्वरात्र रूपं निष्पद्यति इति सः अपि पञ्चमाध्याये दीयते. षष्ठाध्याये तु द्वित्वप्रकरणं सम्प्रसारणं सन्धि संहिताधिकारः अत्र स्वरसन्धिविधायकसूत्राणि सन्ति यणसन्धि गुणसन्धि वृद्धिसन्धिः सवर्णदीर्घसन्धि इत्यादयः. चतुर्थपादे तु अङ्गाधिकारः षष्ठमे अध्याये चतुर्थपादे प्रथमसूत्रात् आरभ्य सप्तमे अध्याये चतुर्थपादे सप्तनवतिः सूत्रपर्यन्तं सप्तनवतितमं सूत्रं पर्यन्तम् अङ्गं किम् इति न ज्ञायते चेत् पूर्वोत्तरपत्रं पठतु इति दीयते. षष्ठाध्याये अपि द्वित्वप्रकरणम् अथवा सम्प्रसारणं च अच् सन्धि तत्सम्बन्धि सर्वाणि सूत्राणि तिष्ठति. चतुर्थपादे तु चतुर्थपादात् आरभ्य अहं चिन्तयामि अङ्गकार्यं यथा प्रत्ययपरे धातु वा प्रातिपदिकं वा तस्य अङ्गस्य किं किं कार्यं भवति इति चतुर्थपादात् आरभ्य सप्तम अध्यायस्य अन्तिमपर्यन्तं सूत्राणि भवन्ति. सप्तमे अध्याये पूर्णतः अङ्गकार्यम् अस्ति. अङ्गात् परस्य प्रत्ययादेशः के के प्रत्ययाः भवन्ति प्रत्ययात् बाय् देर् इफेक्ट् अङ्गात् किं किं कार्यं भवति इडागम अपि तत्र अस्ति. सार्वधातुकप्रत्यये परे अङ्गकार्यं सार्वधातुक अर्धधातुकयोः उगन्तलघुपदस्य च अत्रापि इदम् इमे सूत्रे वयं जानीमः पठितवन्तः. तत्र सूत्रसङ्ख्या पश्यामश्चेत् सप्तम अध्याये तृतीयपादे अस्ति स्तः द्वावपि वृद्धिप्रकरणं निति किति तद्धितेषु अत्रापि अङ्गात् यः वृद्धिः भवति वृद्धिसन्धिना यः वृद्धिः भवति तस्य सम्बन्धि सूत्राः अपि सूत्राणि अपि अत्र दीयते. अभ्यास इति काचित् संज्ञा अस्ति तत्र अभ्यासकार्यप्रकरणम् इति अपि प्रकरणम् अस्ति यत् कार्यं भवति द्वित्वानन्तरं यथा दा द्वित्वं भूत्वा दादा भवति तदनन्तरं प्रथम दा इति शब्द इति वर्णस्य ह्रस्वत्वं भवति च अन्तिमरूपं ददाति कथं सिद्ध्यति इति सूत्राणि अपि अत्र दीयते. अष्टम अध्याये तु पदस्य इति अधिकारः अस्ति. अष्टम अध्याये प्रथमपादे त्रयोदशसूत्रात् आरभ्य अष्टम अध्याये तृतीयपादे पञ्चाशत् सूत्रपर्यतमं सूत्रपर्यन्तं पूर्वत्रासिद्धत्वाधिकारः हलसन्धि विसर्गसन्धि च नत्वप्रकरणं दीयते. यथा फलानि फलम् इति फलानि भवति परन्तु पुष्पम् इति पुष्पाणि भवति तस्य किमर्थं भवति का प्रक्रिया इति नत्वप्रकरणे अस्ति. अग्रे अपि मातुः अष्टाध्यायी सूत्रपाठपुस्तकस्य पृष्ठसङ्ख्या एकादशतः अष्टाविंशति पर्यन्तं प्रत्येकम् अध्यायस्य पादस्य च सारांशः इतोपि विस्तरेण उक्तः.
अस्तु भगिनि, धन्यवादः. Does anybody have anything to share on this? Anything you might have additional information or questions?
The Dvitva Prakarana comes in Juhotyadi Gana as well as Litla Karaha. Babbu, like that and all comes. So there are a lot of sutras in that. So this much I know, but I don't know the full details. But similarly, the Juhotyadi Prakarane, Juhoti, so ha becomes ja in front of ha, so Juhoti comes. Only this much.
Good. And we know what caused that Pushpani, we just read that Pratipadikat Sutram.
तत्र तु अर्थपुक्वाङ् इति सूत्रस्य प्रसक्तिः भवति. पकारः मध्ये आयाति अतः पकारमकार अस्ति अतः नकारस्य णत्वं भवति.
भगिनी भवत्या उक्तं एकः एकम् आङ्ग्लभाषा पुस्तकम् अस्ति इति, पुस्तकस्य नाम किं भगिनि?
शिरीशचन्द्र आर्किव् डाट् आर्क् इति अपि अस्ति इति मन्ये. अष्टाध्यायी आफ् पाणिनि बै श्रीशचन्द्रवासु. Yeah, for everything, it's still being built up. What I have also is a hard copy, because the print is not very clear in the soft copy in archive.org. I can send you the link.
Oh, ta, dhanyavada, bhagini.
Dhanyavada. Okay.
Yeah, ashtadhyayi.com has everything except, it's not in English, but... it is very, very detailed.
Yeah. There are a lot of vrittis for this Ashtadhyayi Sutra. One is by name Kashika Vritti. Then another one is there. I don't know all those names. There are so many things are there. So they give details of the detailed explanation for this each sutra.
How it should be interpreted.
What are the anuvrittis have to come. Everything they are explaining in that. Normally. Vritti anuvritti sahita sutram kasya agachati and then tasyami artha kaha iti eva description asti.
Yeah, the problem is not being in India, it is difficult for us to get hard copies, so we are always looking for online resources.
Yes.
Unless we can go to India and order.
But my problem is how to see simultaneously. That also I do not know. The computer I know very, very little. So one this we are talking and the other one and the Karapatra is in front of me. That's all. More than that, how to go to the other one and then come back and all, I do not know.
No, we also prefer hard copy. But when you don't have a choice, you have to rely on online.
Go to that also. You have to have another instrument to see that, like a cell or something like that. I do not know. I'm just imagining.
Yeah, okay. Yeah, we can also connect up on independently of the group to help each other if people are interested. I'll send my number. Okay. Adhikara Sutrani. Pamela Bhagini, Zetra Mahodaya, are you online?
Okay. Does Mahodaya want to read? Zetra Ram Mahodaya want to read?
Zetra Mahodaya? Zetra Mahodaya? I think he is not there.
Yeah, maybe he is not there.
Okay, so Pamela Bhagini, would you like to read?
I will read. I will try to explain. But if I can't explain, please someone else. I'll try.
Yeah.
Adhikara Sutani. Keshanchit Mukhya Adhikara Sutanam Karyakshetram Janimaschet Sarvashtadhyayi Akrutihi सौकर्येण मनसि तिष्ठति. अधिकारसूत्रम् इत्युक्तौ तादृशं सूत्रं यस्य पूर्णरूपेण अनुवृत्तिः भवति बहुषु सूत्रेषु. अधः कानिचन प्रमुखाधिकारसूत्राणि दत्तानि, तेषां कार्यक्षेत्रम् अपि सूचितं, नाम कस्मात् सूत्रात् आरभ्य किं सूत्रपर्यन्तं तस्य प्रभावः. अस्तु, तत् दत्तम् अधिकारसूत्राणि इत्युक्ते किं, वयं जानीमः पाणिनीयसूत्रपाठे भिन्नभिन्नरीत्या सूत्राणि सन्ति, तस्मात् अधिकारसूत्राणि अपि एक टैप् एक one type of प्रकार. धन्यवादः. एकप्रकारसूत्र यदा अधिकारसूत्रे तस्य पूर्णरीत्या ग्रहणं भवति अनुवृत्ति सह अन्यत् सूत्रयां तत् समीचीनं वा यत्र कार्यम् अपेक्षिता तत्र पूर्णरीत्या आगत्य तिष्ठति यत्
अधिकारक्षेत्रे प्रत्येक सूत्रे आगत्य तिष्ठति
अग्रिमे पठामि वा अथवा
पठतु भगिनि
प्रत्यय प्रत्यय तृतीय अध्याये प्रथमपादे प्रथम सूत्र एतस्य अधिकार प्रथम तृतीय अध्याये प्रथमपादे प्रथमसूत्रतः पञ्चम अध्याय चत्वारि पादाः षष्टि अधिक एकशततमपर्यन्तं तस्य अधिकार भवति तृतीय चतुर्थ पञ्चम इत्येषु त्रिषु अध्यायेषु यत्र तत्र कस्यचित् विधानं भवति तत्र तत्र प्रत्यय आगत्य वदति यत् यस्य विधानं सञ्जातं तस्य प्रत्ययसंज्ञा भवति एषु त्रिषु अध्यायेषु विधिसूत्रं यत्र यत्र भवति तत्र सर्वत्र अस्य सूत्रस्य अधिकारः तृतीय चतुर्थ पञ्चम इत्येषु त्रिषु अध्यायेषु कस्यचित् विधानं भवति तस्थपत्य अगत्य वदति यत् यस्य विधानं सञ्जाता तस्य आमां यत्र यत्र एतस्य अधिकार तृतीय चतुर्थ पञ्चमी त्रिषु अध्यायेषु प्रत्ययस्य विधानं भवति यत्र प्रत्ययस्य विधानं भवति तत्र प्रत्ययसंज्ञा इति ना संज्ञा भवति तस्य अध्यायेषु विधानसूत्रं यत्र तत्र अस्य अस्य सूत्रस्य यत्र यत्र वयं यत्र त्रिषु अध्यायेषु विधिसूत्रं यत्र यत्र भवति तत्र सर्वत्र अस्य सूत्रस्य अधिकारः
नूतनशब्दः आगच्छति चेत् प्रत्ययः भवति इति अहं पठामि त्रिषु अध्यायेषु नूतनशब्दः आगच्छति चेत् तस्य प्रत्ययसंज्ञा
तस्य प्रत्ययसंज्ञा भवति इति वा ओ ओके
न्यू वर्ड् कम्स् इन् दोस् त्री चाप्टर्स् दे आर् गिवन् दि दे आर्
प्रत्ययसंज्ञा अस्य सूर्यस्य अधिकार एतेषु अध्यायेषु वीधिषु तु यत्र भवति तत् सर्वत्र ओके लेट् मी तृतीय अध्याय प्रथम पाद प्रथमसूत्रात् पञ्चम अध्याय चत्वारि इत्येषु यत्र यत्र विधानम् अस्ति तत्र तत्र प्रत्येकं सूत्रस्य अर्थ एवम् अन्वयः यथा यथा विहितं तस्य प्रत्ययसंज्ञा भवति यथा वर्तमाने लट् अस्मिन् सूत्रे प्रत्यय इति सूत्रम् उपविश्य वदति यत् लट् विहितः अस्ति अतः तस्य प्रत्ययसंज्ञा भवति अस्तु तत्र ओ प्रत्यय इति सूत्रम् उपविश्य तत् अनुवृत्ति भवति खल किल ऐ मीन्
अनुवृत्ति भवात् तत्र तत् सूत्रे तिष्ठति उपविशति
ऐ मीन् नौ ऐ एम् कन्फ्यूस् टोटलि वर्तमाने लट् अस्मिन् प्रत्यय इति सूत्रे उपयोग वदति ओ लट् इट् लट् इट् सेल्फ् इट् गिव्स् द प्रत्यय संज्ञा टु लट्
So those nine are called pratyaya. They get the sangya pratyaya.
Oh, those will get the pratyaya, but not lat. Lat is...
Probably
Because, you know, now I am confused with that Sarvadhatuka Lakara and Arvadhatuka Lakara.
One second. Tritiya Adhyaye Pradhama Pade, you take Sutra 68, Kattari Shap. So, Shap is a Pratyaya. That yes. Pratyaya comes and adds to Lat Lakara. And then Shen Pratyaya, Divadibhyah Shen. So, Divadigane, Shen Pratyaya comes. So, okay. These sutras are given there.
Astu bhai. Danyavada.
I think Lat is itself a Pratyaya. Any new word that comes in these three chapters, they get the Pratyaya
Sanyas. And he has not used the word Lat. It is only Kartari Shap. It's automatically the Shap Pratyaya comes for the Prathamagana.
This sutra has a Lat. The 3.1.123 has Vartamane Lat.
Yes, that is right. So you call Lat, the present tense you call Lat, that's all. Lat Lakaraha means Prathama present tense, that's all. See, that is Shabd is to be added for that to the Dhatu, it is given here because the Gana is not mentioned here. Because next Sutra, Divadindeha Shen, so Divadi Ganeshen Agachati iti Atra Dattam. Kintu Bhadi Gane Shab Agachati iti Na Dattam. But it is presumed, that's all.
Yeah, Bhagini, right now we are talking about what the Adhikara is, and the Adhikara is Pratyaya, so I'm thinking the Lat is also a Pratyaya. And then in place of Lat, Tittasji, that comes, and then it also brings in Vikarana Pratyaya, but Lat itself is defined as a Pratyaya because of the Adhikara of the Pratyaya Sutra.
Pratyaya Paraham Parasya.
Yeah.
I am reading from Ashtadhyayi Nyatavyam Lat Pratyasya Artha Vartamana Iti Na Vartamanatvam Iti Tu Kriyayaha Visheshanam Asti Tat Dyotayitum Lat Pratyasya Prayoga Bhavati. So, Lat is a Pratyaya. If you use Lat, it is used in the sense of Vartamanakali.
So, I think for Adhikara Sutras, that's becoming Lat is defined as a Pratyaya because it's a new word in these three chapters. And the Pratyaya comes as an Adhikara.
Yes. Should I read further or someone else will read?
Okay, maybe we can circulate. Shriram Mahodaya, do you want to pick up again?
Sure, Bhagini. So, Parashya iti Arabhya?
Mahodaya.
Parashya. Adhikaraha 3.1.1. Taha Pariyantam 5.4.160 Yeshu Eva Trishu Adhya Yeshu Yatra Yatra Pratyayaha Ityanena Pratyayaha Samnya Bhavati Tatra Tatra Parascha Iti Sutramapi Upavishya Vadati Yat Ayam Pratyayaha Prakritehe Anantaram Ayati Yatha Vartamane Lat Vartama Vartmanarthe Dhatutaha Lat Bhavati Agrimadikara Sutram Dhatoho Iti Apicha Lat Pratyaya Samnya Bhavati Pratyayaha Ityanena Atreva Dattam Latiti Pratyayaha Eva Iti Dhatoho Pare Eva Ayati Parasya ityanena Anuvritti Sahita Sutram Dhatoho Vartamane Lat Pratyayaha Parasya Yadi Lat Pratyayaha Samnya Na Bhavishyat Tarhi Parasya Na Agamishyat Tasyam Dashayam Lattu आद्यन्तौ टकितौ इत्यनेन धातोः प्राक् उपविशत् अभविष्यत् भू योगः लट् इति न अपि तु लट् योगः भू अभविष्यत् अत्र किञ्चित् प्रयत्नं करोमि भगिनी अत्र परस्य इति अपि एकः सूत्रमस्ति अधिकारसूत्रमेव अत्र दत्तं यत्र यत्र प्रत्ययः प्रत्ययस्य संज्ञा भवति तत्र परस्य इति अपि सूत्रमपि तेन सह आगत्य अयं प्रत्ययः धातोः अनन्तरम् आगच्छति इति उदाहरणमपि अत्र दत्तं वर्तमाने लट् इति अस्ति वर्तमानार्थे लट् एव भवति अत्र प्रत्ययः परस्य इति अधिकारः अपि अत्र आगत्य धातोः वर्तमाने लट् प्रत्ययः परस्य इति सम्पूर्णसूत्रं भवति यत्र लट् इति प्रत्ययः एव नास्ति तत्र धातोः अनन्तरं परस्य इति अपि अत्र न भवति अत्र यत्र प्रत्ययः अस्ति तत्र एव परस्य इति अपि आगत्य अर्थस्य पूरणं करोति
It is chapter 3, Adhikarah 3 to 123. Sutra
so number. We are running close to our limit.
Yeah, 10 o'clock.
I don't know. So when we had the, just saying one thing on this Parashya, when we had that Yudagama, that it was also a Pratyaya, but then it came before because of this Adhyantav Takitav. That's mm-hmm. because I think it was in the 7th chapter, whereas this one is in the Lat is in the 3rd chapter and the Parashcha makes it come after the Dhatu. So the Parashcha is changing the, overriding that Adhyantav Takitav for this Pratyaya.
Yeah,